सर्वेषां पाणिनिव्याकरणवर्गं प्रति स्वागतम्। आदौ मङ्गलाचरणं कुर्मः। भगिनी स्मरयतु।
ॐ येनाक्षरसमाम्नायम् अधिगम्य महेश्वरात् कृत्स्नं व्याकरणप्रोक्तं तस्मै पाणिनये नमः। येन दौताघपुंसां विमलैशब्दवारिभिः तमश्चायानजं भिन्नं तस्मै पाणिनये नमः। वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च तनतोष्णिममित्रयं। हरिः ॐ श्रीगुरु नमः। धन्यवादः।
धन्यवादाः। अद्य नूतनपाठः आरभ्यते। नूतनपाठस्य शीर्षकमस्ति तिङ्सिद्धेः समग्रदृष्टिः, लकाराणाञ्च समग्रदृष्टिः। तत्र विषयद्वयमस्ति, तिङ्सिद्धेः समग्रदृष्टिः, लकाराणाञ्च समग्रदृष्टिः। तिङ् इति हलन्तशब्दः, तिङ् तिङौ तिङ्गः, सिद्ध धातोः क्तिन् प्रत्ययान्तरूपमेव सिद्धिः। अस्मिन् पाठे बहवः विषयाः परिचिताः एव, शीघ्रम् अवलोक्य अग्रे सरेम। नोन् टु अन्नोन् गच्छामः। दृश् धातोः क्तिन् प्रत्ययान्तरूपमेव दृष्टिः। दृष्टिः दृष्टं दृष्टवान् इत्यादीनि पदानि दृश् धातुतः निर्मितानि पदानि। समग्रदृष्टिः इति समस्तपदमस्ति, तस्मिन् समानविभक्तिकत्वं सामानाधिकरण्यमस्ति। इत्युक्ते उत्तरपदस्य पूर्वपदस्य द्वयोः पदयोः विभक्तिः एका एव, विभक्तिः समाना एव, अतः समानविभक्तिकत्वमस्ति इत्यतः समग्रदृष्टिः इत्यस्मिन् पदे कर्मधारयसमासः अस्ति। कर्मधारयसमासस्य प्रसङ्गे सामानाधिकरण्यं समानविभक्तिकत्वं वर्तते। समग्रदृष्टिः इति समस्तपदे विशेषणपूर्वपदकर्मधारयसमासः अस्ति। समग्रा च एषा दृष्टिः च इति विग्रहवाक्यं वक्तव्यं भवति। तत्र पुंवद्भावः वक्तव्यः, समग्रा दृष्टिः इति वदामः खलु, किन्तु समस्तपदे समग्रदृष्टिः इति एव भवति। इत्युक्ते तत्र पुंवद्भावः वक्तव्यः। समग्रदृष्टिः इत्युक्ते सम्पूर्णदृष्टिः, समग्रं सकलं सम्पूर्णम् इत्यादीनि समानार्थकपदानि। सकलं भिन्नं, शकलं भिन्नं खलु। करपत्रम् उद्घाटयन्तु, आरम्भात् पठेम। नीलं भगिनी भवती एव पठतु।
अस्तु भगिनि। लट् लकारे भवादिगणे पा धातु पिबति, जुहोत्यादिगणे दा धातु ददाति, स्वादिगणे आप धातु आप्नोति, दश धातुगणाः सन्ति। गणम् अनुसृत्य विकरणप्रत्ययस्य भेदेन लट् लकारे रूपभेदः दृश्यते। पिबति दधाति आप्नोति इति प्रमाणम्। परन्तु लृट् लकारे पा धातु पासयति, दा धातु दासयति, रूपस्य साम्यं दृश्यते।
भगिनी अत्र पास्यति अस्ति खलु, पास्यति दास्यति आप्स्यति एवम् अस्ति खलु, दासयति अस्ति वा? पश्यतु, स्या इति विकरणप्रत्ययः अस्ति खलु, दासयति नास्ति खलु, दास्यति। भवती जानाति खलु पा धातुतः पास्यति, पठतु।
पा धातु पास्यति, दा धातु दास्यति, आप् धातु आप्स्यति। अत्र रूपस्य साम्यं दृश्यते, यतः मध्ये गणीयविकरणप्रत्ययः नास्ति। लट् लकारः सार्वधातुकलकारः, लृट् लकारः अर्धधातुकलकारः, अयं भेदः कथं निष्पन्नः अस्मिन् पाठे परिशीलयामः। अत्र अस्मिन् परिच्छेदे अत्र लिखितमस्ति लट् लकारः, वयं जानीमः तत्र लट् लकारः, लोट् लकारः, विधिलिङ्ग् लकारः, अपि च तत्र लङ् लकारः, ते चत्वारि लकारः सार्वधातुकलकारः। तत्र घनस्य चिन्तनं भवति, घनविकरणप्रत्ययस्य तत्र तस्य चिन्तनं भवति लट् लकाररूपनिर्माणार्थं। सो तत्र लिखितमस्ति पवादिगणे पा धातु अस्ति, तस्य रूपम् अस्ति पिब, पिबति। अत्र शपिबिकरण प्रत्ययः, अतः पिब योग अयोगति। ज्योत्यादिगणे दा धातु ददाति, तत्र दित्वं भवति, शप श्लू भवति, अतः तत्र ददाति इति घन अनुसृत्य तत्र कार्यं भवति। तथैव स्वादिगणे तत्र आप धातु अस्ति, तत्र आप्नोति इति भवति। स्वादिगणे तत्र श्नु इति विकरण प्रत्ययः अस्ति, अतः तत्र अनन्तरं तत्र गुणः भवति, सो आप्नोति इति श्रूयते। सो दश धातुगणाः सन्ति, वयं सर्वे जानीमः। तत्र घनम् अनुसृत्य विकरण प्रत्ययस्य भेदेन लट् लकारे रूपभेदः दृश्यते। तत्र भिन्नभिन्न विकरण प्रत्ययाः सन्ति, अतः तत्र लट् लकाररूपे तत्र रूपभेदम् अपि दृश्यते तेन कारणेन। सो पिबति, ददाति, आप्नोति इति प्रमाणं। तत्र भिन्नभिन्नरूपाणि सन्ति। पिबति इति पदे तत्र अकारः श्रूयते, ददाति इति तत्र पदे तत्र द्वित्वं भवति, अनन्तरं तत्र मध्ये किमपि नास्ति, तत्र शप् श्लू भवति। तथैव आप् इति धातु अस्ति, परन्तु मध्ये नो श्रूयते। सो तिङ् धातु, तिङ् अपि च धातु मध्ये तत्र भिन्नभिन्न वर्णाः आयाति लट् लकाररूपे। सो तत्र रूपं भिन्नं भवति। परन्तु लृट् लकारे तत्र पा धातु वयं जानीमः, तत्र शतासि लृ लुटो, तत्र स्य इति विकरण प्रत्ययः मध्ये आयाति। तत्र शप् इति कर्तरि शप् इति प्रत्ययस्य तत्र प्रसक्ति न भवति, अतः तत्र शतासि लृ लुटो, तत्र स्य इति आयाति। सो ये द्विसहस्रधातवः तत्र सन्ति लृट् लकारे, तत्र रूपं समानं दृश्यते। किमर्थं चेत् तत्र स्य इति विकरण प्रत्ययः, तत्र धातु तिङ् मध्ये स्य इति आयाति। सो तत्र पास्यति, धास्यति, आप्स्यति इति रूपं भवति। भिन्नभिन्न धातु भिन्नभिन्नगणे अस्ति चेदेव अत्र रूपस्य साम्यं दृश्यते। सो अत्र स्य 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 इति सर्वत्र श्रूयते, यतः मध्यगणीय विकरण प्रत्ययः नास्ति। अत्र दश विकरण प्रत्ययः, ये दशगणाः सन्ति, अत्र घनीय विकरण प्रत्ययः नास्ति, अत्र लकार विकरण प्रत्ययः अस्ति। सो लट् लकार सार्वधातुक लकारः, लृट् लकारः अर्धधातुक लकारः। सो तत्र अयं भेदः क सार्वधातुक लृट् लकारः अर्धधातुक।
भगिनी न श्रूयते, बहु सम्यक् प्रतिपादितं, तदेव अस्मिन् परिच्छेदे दत्तमस्ति। सार्वधातुकलकारेषु एव धातुम् अनुसृत्य गणभेदेन रूपभेदः जायते इति वार्ता। प्रमाणम् इति पदमस्ति खलु, प्रमाणम् इति ल्युडन्तपदमस्ति। सदृशस्य भावः सादृश्यम्, एवमेव समस्य भावः साम्यम्, रूपसाम्यं दृश्यते लृट् लकारे। पास्यति, दास्यति, आप्स्यति इत्यत्र रूपसाम्यं दृश्यते, इत्युक्ते मध्ये गणविकरणप्रत्ययः नास्ति इत्यतः प्रथमे सोपाने एव लृट् लकारं निमित्तीकृत्य स्या इति लकारनिमित्तीकरणप्रत्ययः आयाति। पूर्वं वयं पठितवन्तः खलु, सार्वधातुकलकारः अर्धधातुकलकारः द्वयोर्मध्ये भेदः कः। सार्वधातुकलकारः अर्धधातुकलकारः द्वयोर्मध्ये महत्त्वपूर्णभेदः अस्ति। सार्वधातुकलकारः इत्युक्ते यस्मिन् लकारे धातुना तिङ् प्रत्ययः साक्षात् दृश्यते, अपि च तिङ् प्रत्ययस्य सम्पर्केण अथवा सार्वधातुकप्रत्ययस्य सम्पर्केण मध्ये गणविकरणप्रत्ययः आयाति। यस्मिन् लकारे धातुना तिङ् प्रत्ययः साक्षात् दृश्यते, अपि च तेन सम्पर्केण मध्ये गणविकरणप्रत्ययः आयाति। गणविकरणप्रत्ययभेदेन गणस्य लक्षणं ज्ञायते। गणविकरणप्रत्ययभेदेन तिङन्तरूपाणि अपि भिद्यन्ते। भिन्नरीत्या वदामि चेत्, यस्मिन् लकारे कर्त्रार्थकसार्वधातुकप्रत्ययः धातुना साक्षात् दृश्यते, सः लकारः सार्वधातुकलकारः। किन्तु आर्धधातुकलकारेषु धातुना तिङ् प्रत्ययः न दृश्यते। तत्र मध्ये प्रथमसोपाने एव लकारनिमित्तिकविकरणप्रत्ययः आयाति, अतः मध्ये गणविकरणप्रत्ययः आगन्तुं न शक्नोति. भिन्नरीत्या तदेव वक्तुमिच्छामि चेत् येषु येषु लकारेषु गणभेदेन तिङन्तरूपभेदः न जायते सः लकारः एव आर्धधातुकलकारः. इत्युक्ते आर्धधातुकलकारेषु गणभेदेन तिङन्तरूपभेदः न जायते, सार्वधातुकलकारेषु गणीया चर्चा भवति, आर्धधातुकलकारेषु गणीयचर्चा अनावश्यकी, किन्तु आर्धधातुकलकारेषु इडागमविचारः करणीयः. लट्लकाररूपाणि दत्तानि, आर्धधातुकलकाराणां कृते उदाहरणार्थं लृट्लकाररूपाणि दत्तवन्तः. आर्धधातुकलकाराणां प्रतिनिधिरूपेण लृट्लकारं स्वीकृत्य अत्र दत्तमस्ति. लृट् लकारं निमित्तीकृत्य स्या इति लकारनिमित्तिकविकरणप्रत्ययः प्रथमसोपाने एव आगच्छति, पश्चादेव तिङ्प्रत्ययः आयाति. तदर्थमेव पा योगः स्या योगः ति पास्यति, दा योगः स्या योगः ति दास्यति, एवं रूपाणि भवन्ति. तत्र गणीचर्चा अनावश्यकी, किन्तु सार्वधातुकलकारेषु गणमनुसृत्य गणविकरणप्रत्ययः भिद्यते खलु. पा धातुः भुवादिगणे अस्ति इति कारणतः शप् विकरणप्रत्ययः आयाति, किन्तु तत्र इतोपि कार्यमस्ति, एकं विशिष्टं सूत्रमस्ति, तेन विशिष्टसूत्रेण पिब आदेशः भवति, धात्वादेशः भवति इत्यतः पिबति इति रूपं तत्र सिद्ध्यति. सार्वधातुकलकारेषु गणविकरणप्रत्ययः भिद्यते, अतः रूपभेदः जायते. लृट्लकारे प्रथमसोपाने एव स्या इति प्रत्ययः आगत्य तत्र उपविशति, पश्चादेव द्वितीयसोपाने एव तिङ्प्रत्ययः आयाति. सार्वधातुकलकारः आर्धधातुकलकारः द्वयोर्मध्ये भेदः कदा निष्पन्नं भवति इति अवगन्तुम् इदं करपत्रं पठनीयं. कस्यां दशायां तयोर्मध्ये भेदः आयाति? इदानीं सुजाता भगिनी भवती पठतु.
धातुभ्यः विहिताः प्रत्ययाः द्विविधाः तिङ् च कृत् च, एते सर्वे प्रत्ययाः पुनः विभाजिताः सर्वधातुकाः आर्धधातुकाच्च. अस्य महत्त्वम् एवं यत् प्रत्ययः सार्वधातुकच्चेत् तर्हि कर्तृदे शबादयः विकरणाः आयान्ति कर्तरि शप् इत्यनेन, शबादयः आयान्ति चेत् धातुगणभेदाः भवन्ति. प्रत्ययः सार्वधातुकं नास्ति चेत् आर्धधातुकः एव, आर्धधातुकः चेत् इडागमविचारः करणीयः. अयं विभाजनं तिङ्षु अपि भवति कृत्सु अपि भवति. प्रथमतया तिङ्प्रसङ्गे अवलोकयाम, तदा कृत् प्रसङ्गे.
भगिनि, विभजनं विभाजनं द्वयोर्मध्ये भेदः अस्ति खलु?
आम् आं भगिनि, विभजनं लुडन्तपदमस्ति, विभाजनं विभागः भवति.
यथा पठनं पाठनं, तत्र भेदः अस्ति सार्वधातुकाः, अत्र पठनसमये अवधानं दातव्यम्, अवधानं ददातु.
आम् आं भगिनि,
वदतु.
धातुभ्यः विहिताः प्रत्ययाः द्विप्रकारः भवन्ति, तिङ् प्रत्ययाः कृत् प्रत्ययाः. ये सर्वे प्रत्ययाः पुनः विभाजिताः सार्वधातुकाः आर्धधातुकाः च. प्रत्ययाः पुनः द्विविधा विभाजिताः सन्ति सार्वधातुकाः आर्धधातुकाश्च.
भगिनि, अत्र द्विविधा इति भिन्नं पदं, प्रत्ययाः द्विविधाः इति भिन्नं, किन्तु प्रत्ययाः द्विधा विभज्यन्ते इति भिन्नं. व्याकरणे धा इति प्रत्ययः अस्ति, तदर्थम् एकं सूत्रमस्ति, संख्याया विधार्थे धा इति सूत्रं, संख्यायाः विधार्थे धा. तेन सूत्रेण संख्यावाचिभ्यः शब्देभ्यः धा प्रत्ययः विधीयते. एकेन प्रकारेण इत्यस्मिन् अर्थे एकधा भवति, द्वयोः प्रकारयोः द्विधा त्रिभिः प्रकारैः त्रिधा चतुर्भिः प्रकारैः
चतुर्धा
पञ्चधा षड्धा बहुधा कतिधा यावद्धा शतधा सहस्रधा इमानि पदानि तथा निर्मितानि तत्र धा इति एकः प्रत्ययः अस्ति क्रियाप्रकारार्थे धा प्रत्ययः मुख्यतया संख्यावाचिभ्यः शब्देभ्यः परं धा प्रत्ययः विहितः भवति धातुभ्यः विहिताः प्रत्ययाः द्विधा विभज्यन्ते इदानीं वदतु
धातुभ्यः विहिताः प्रत्ययाः द्विधा विभज्यन्ते तिङ् प्रत्ययाः कृत् प्रत्ययाः च सम्यक् एव भगिनि
सम्यक्
पुनः सर्वे प्रत्ययाः इत्युक्ते तिङ् या कृत् सर्वे प्रत्ययाः पुनः विभाजिताः सार्वधातुकाः आर्धधातुकाः च अस्य महत्त्वम् एवं यत् प्रत्ययाः सार्वधातुक चेत् तर्हि कर्तृदे शबादयः विकरणप्रत्ययाः कर्तरि शप् इत्यनेन विहिताः भवन्ति शबादयः आयान्ति चेत् शबादयः इत्यनेन धातुगणभेदाः भवन्ति प्रत्ययः सार्वधातुकं नास्ति चेत् आर्धधातुकम् एव आर्धधातुक चेत् इडागमस्य चिन्तनं करणीयं सम्यक् एव भगिनि
वदतु वदतु
इडागम करणीयः विचारः करणीयः अयं विभाजनं तिङ्षु अपि भवति तस्य इडागमस्य विभाजनं तिङ्षु अपि भवति कृत्सु अपि भवति प्रथमतया तिङ् प्रसङ्गे अवलोकयाम तदा कृत् प्रसङ्गे सार्वधातुकम् आर्धधातुकं द्वे विभागः स्तः द्वौ विभागौ स्तः इडागमविचारकरणे आर्धधातुकप्रत्यय अस्ति चेत् इडागमविचारः करणीयः तस्य विभजनं तिङ्षु भवति कृत्सु अपि भवति प्रथमतया तिङ् प्रत्ययः अवलोकयाम अग्रे तिङ् प्रत्ययः इति तिङ् प्रत्ययप्रसङ्गे दत्तमस्ति
साधु भवती अवगतवती कोऽपि भिन्नरीत्या वक्तुमिच्छति वा अत्र महत्त्वम् इति पदमस्ति खलु तत्र त्वा इति प्रत्ययः अस्ति महत्त्वं भिन्नं माहात्म्यम् इति पदमपि अस्ति माहात्म्यं भिन्नं एते प्रत्ययाः तद्धितप्रत्ययाः अस्य परिच्छेदस्य प्रथमशब्दः धातुभ्यः विधीयमानाः प्रत्ययाः द्विधा भवन्ति धातुभ्यः विधीयमानाः प्रत्ययाः कस्मिन् अध्याये विधीयन्ते तृतीयाध्याये तृतीयाध्याये धातोः इत्यस्य अधिकारः अस्ति अपि च प्रत्ययः परश्च इति त्रयाणाम् अधिकारसूत्राणाम् अधिकारः अस्ति तृतीयाध्याये धातुभ्यः प्रत्ययाः विधीयन्ते तृतीयाध्याये धातुभ्यः विधीयमानाः प्रत्ययाः द्विधा विभज्यन्ते तिङ् प्रत्ययाः कृत् प्रत्ययाः अष्टाध्यायीग्रन्थे तृतीयाध्यायं पश्यामश्चेत् तत्र तिङ् प्रत्ययानां विधानार्थं यानि तत्सम्बद्धानि सूत्राणि आवश्यकानि तानि सर्वाणि तृतीयाध्याये सन्ति धातुभ्यः विधीयमानाः कृत् प्रत्ययानां विधानार्थं यानि सूत्राणि आवश्यकानि इत्युक्ते कृदन्तरूपसाधनार्थं यानि सम्बद्धानि सूत्राणि यानि आवश्यकानि तानि सर्वाणि सूत्राणि तृतीयाध्याये सन्ति यदा कदापि संशयः जायते तदा वयं किं कुर्मः अष्टाध्यायीग्रन्थस्य तृतीयाध्यायं पश्यामः इत्युक्ते धातुभ्यः विधीयमानप्रत्ययानां विधानार्थं किं सूत्रं तत्र कार्यं करोति इति अवगन्तुं तृतीयाध्यायं पश्यामः. अपि च एते प्रत्ययाः पुनः द्विधा विभजिताः, सार्वधातुकाः आर्धधातुकाः. सार्वधातुकम् आर्धधातुकम् इति प्रत्ययस्य नाम, प्रत्ययस्य नामकरणं सार्वधातुकम् आर्धधातुकम् इति. वयं पठितवन्तः खलु पूर्वं तिङ्क्षित् सार्वधातुकं. तिङ्क्षित् सार्वधातुकम् इति सूत्रेण तिङ् प्रत्ययाः षित् प्रत्ययाः सार्वधातुकसंज्ञकाः. आर्धधातुकं शेषः इत्यनेन आर्धधातुकसंज्ञकाः भवन्ति. धातुभ्यः विधीयमानाः प्रत्ययाः आर्धधातुकं शेषः इति सूत्रेण आर्धधातुकसंज्ञकाः भवन्ति. एतादृशनामकरणम्, एतादृशसंज्ञा धातुभ्यः विधीयमानप्रत्ययस्य एव भवति. धातुभ्यः विधीयमानप्रत्ययस्य एव एतादृशनामकरणं दीयते इति तत्र स्मर्तव्यः अंशः. पठितवन्तः खलु तिङ्क्षित् सार्वधातुकम् आर्धधातुकं शेषः. तिङ् इत्युक्ते तिङ् प्रत्ययाः, षित् इत्युक्ते षकारः इत् यस्य सः. अर्धधातुकं शेषः तिङ्क्षित् सार्वधातुकम् इति सूत्रद्वयेन प्रत्ययाः द्विधा भवन्ति इति अवगतवन्तः. सार्वधातुकप्रत्ययाः आर्धधातुकप्रत्ययाः. इतोपि किमस्ति, सार्वधातुकतिङ् प्रत्ययाः, सार्वधातुककृत् प्रत्ययाः, अपि च आर्धधातुकतिङ् प्रत्ययाः, आर्धधातुककृत् प्रत्ययाः. अन्ततो गत्वा चतुर्णां प्रकाराणां प्रत्ययानां प्रसङ्गे ज्ञास्यामः. सार्वधातुकतिङ् प्रत्ययाः, सार्वधातुककृत् प्रत्ययाः, अपि च आर्धधातुकतिङ् प्रत्ययाः, आर्धधातुककृत् प्रत्ययाः. तस्मिन्नेव प्रसङ्गे एकम् अन्यत् सूत्रमपि अस्ति, कृदतिङ् इति सूत्रमस्ति. तेन सूत्रेण धातुभ्यः विधीयमानाः ये प्रत्ययाः तिङ् भिन्नाः, ते कृत् प्रत्ययाः भवन्ति. सार्वधातुकप्रक्रियायां कानिचन विशिष्टानि कार्याणि भवन्ति, आर्धधातुकप्रक्रियायाम् अन्यानि कार्याणि भवन्ति. सार्वधातुकप्रक्रियायां कर्तरर्थक सार्वधातुकप्रत्यये परे कर्तरि शप् इति सूत्रेण शप् इति विकरणप्रत्ययः औत्सर्गिकतया आयाति, डिफाल्ट् कृत्वा आयाति. कर्तरि शप् इति सूत्रम् उत्सर्गसूत्रं. धातुः यस्मिन् कस्मिन्नपि गणे भवतु नाम कर्तरर्थकसार्वधातुकप्रत्ययः परः अस्ति चेत् कर्तरि शप् सूत्रेण शप् आयति एव. प्रथमसोपाने कर्तरि शप् सूत्रेण शप् आयति एव सर्वेषु गणेषु औत्सर्गिकतया आयाति. कर्तरि शप् इत्यस्मिन् सूत्रे गणस्य उल्लेखः नास्ति, कस्मिन् गणे शप् आनेतव्यम् इति तस्मिन् सूत्रे न लिखितम् अस्ति. कर्तरर्थकसार्वधातुकप्रत्ययः धातोः परम् अस्ति चेत्, धातोः परं कर्तरर्थकसार्वधातुकप्रत्ययः इत्युक्ते कर्तरर्थक तिङ् प्रत्ययः वा भवतु, कर्तरर्थक षित् प्रत्ययः वा भवतु, धातोः परम् अस्ति चेत् कर्तरि शप् सूत्रेण शप आयाति एव. इत्युक्ते लट् रूपेषु शप आयाति, अपि च शत्रन्तरूपेषु अपि. शत्रुप्रत्ययः तिङ् नास्ति किन्तु सार्वधातुकप्रत्ययः, शत्रुप्रत्ययः सार्वधातुकप्रत्ययः किन्तु तिङ् नास्ति, कृत् प्रत्ययः, सार्वधातुककृत् प्रत्ययः. अतः शत्रन्तरूपसाधनवेलायाम् अपि औत्सर्गिकतया कर्तरि शप् सूत्रेण शप् आयति. सः धातुः कस्मिन् अपि गणे भवतु नाम प्रथमतया शप् आयति. सार्वधातुकप्रक्रियायां धातुगणम् अनुसृत्य सः धातुः कस्मिन् गणे अस्ति इति दृष्ट्वा शपं प्रबाध्य अपवादसूत्रैः, कानिचन अपवादसूत्राणि सन्ति, अदिप्रभृतिभ्यः शपः, जुहोत्यादिभ्यः श्नुः, स्वादिभ्यः श्नुः, क्रियादिभ्यः श्ना, एतादृशानि अपवादसूत्राणि सन्ति. शप् डिफाल्ट् कृत्वा आयाति, पश्चात् शपं प्रबाध्य अपवादसूत्रेण अन्ये गणविकरणाः आयान्ति. शपः आनयनार्थं कीदृशानि निमित्तानि आवश्यकानि, शपः आनयनार्थं कीदृशानि निमित्तानि आवश्यकानि इति प्रश्ने सति धातोः परं कर्तृर्धकप्रत्ययः स्यात्, सार्वधातुकप्रत्ययः स्यात्, तदा शपायाति. पश्चात् धातुः कस्मिन् गणे अस्ति इत्यस्य आधारेण धातुगणम् अनुसृत्य शपं प्रबाध्य तत्तद्गणीयगणविकरणाः आयान्ति. अतः एव सार्वधातुकलकारेषु सर्वदा गणचिन्तनम् आवश्यकम्, गणमनुसृत्य तत्र रूपभेदः जायते. किन्तु आर्धधातुकलकारेषु गणीयचर्चा नास्ति, इडागमविचारः करणीयः. एते विषयाः परिचिताः एव. अग्रे सरेम, सत्यभामा भगिनी भवती पठतु.
तिङ् प्रत्ययैः लकाराः निष्पन्नाः, अतः तिङ् प्रसङ्गः इत्यस्य वदनेन लकाराणां विषयः आयाति एव. दशलकाराः मूलतः कथं निष्पद्यन्ते इत्यस्य परिशीलनेन बहु किमपि प्रकाशते. अत्र किम् उक्तं? तिङ् प्रत्ययैः लकाराः निष्पन्नाः. तिङ् प्रत्ययैः लकाराः निष्पन्नाः
स एव अस्माकं मुख्यविषयः. करपत्रे तदेव लिखितमस्ति, तिङ् प्रत्ययैः लकाराः निष्पन्नाः. दशलकाराः सन्ति, कस्यां दशायां रूपभेदः जायते, कथं दशलकाराः निष्पन्नाः,
मूलरूपतः कथं तस्य परिवर्तनम् इति विषयः.
अभेदत्वात् भेदः कथं जायते, तिङ् प्रत्ययैः लकाराः निष्पन्नाः कथं, वदतु.
इत्युक्ते प्रथमं वयं जानीमः अत्र मूलतिङ् प्रत्ययाः सन्ति, परन्तु यदा लकारः वदामः चेत् ऋक् लकारे लङ् लकारे भिन्नभिन्नरूपाणि द्रष्टुं शक्यते, तत् कथं निष्पन्नः इति अस्मिन् पाठे आगच्छति. तत्र दशलकाराः सन्ति, तेषां भिन्नभिन्नरूपाणि अपि सन्ति.
दशलकाराः मूलतः कथं निष्पद्यन्ते इति अधुना परिशीलयाम. पूर्वस्मिन् परिच्छेदे किं लिखितं? प्रथमतया तिङ् प्रसङ्गे अवलोकयाम, तदा कृत् प्रसङ्गे इत्युक्ते तिङ्गन्तरूपाणि कथं साधनीयानि, दशलकाराः कथं निष्पद्यन्ते. कृदन्तप्रकरणम् अत्र नास्ति, केवलं तिङ्गन्तानां प्रसङ्गे एव आदौ वयं परिशीलयाम. वदतु,
तिङन्तरूपाणि कथं साधयिष्यामः इति एव अत्र विषयः. अत्र कथम् इति इत्युक्ते प्रथमं वयं जानीमः तिङ् प्रत्ययः प्रथमं साक्षात् तिप्तश्चि एतदेव आगच्छति, तदनन्तरमेव लस्य सूत्रेण अत्र तिङ् प्रत्ययस्य स्थाने इदानीं लट्लकार विवक्षायां स्या इति आगच्छति लस्य स्थाने.
अग्रे पठतु.
दशलकाराः मूलतः पूर्णा कथा. दशलकाराः सन्ति, आरम्भे विवक्षाम् अनुसृत्य दशलकाराः गोचराः. तदा अष्टाध्यायाः पद्धत्या लघुत्वार्थं सर्वे लकाराः लकारः ल इत्येव भवन्ति. अत्र अभेदः एव दृश्यते. पश्चात् ल स्थाने अष्टादश तिङ् प्रत्ययाः, अत्रापि सर्वेषां लकाराणां स्थाने एते समानाः अष्टादश तिङ् प्रत्ययाः, अतः तदानीमपि अभेदः एव. अन्ते तिङां सिद्धत्वेन पुनः दशानां भेदः आयान्ति. अभेदत्वात् भेदत्वस्य आगमनेन लकाराः सर्वधातुकाः आर्थधातुकाः च इत्येवं विभागद्वयम् अत्रैव सृष्टम्.
भगिनी, अत्र इति योगः अयं सन्धिकार्यं करोतु.
इति योगः अयम् इति कारः
इत्ययं खलु,
यकारः आगच्छति इत्ययम्,
यण् सन्धि कार्यमस्ति. इति योगः अयम् इत्ययम् अत्र योगः एव,
अत्र योगः एव एकारः अकारे अत्रैव ऐकारः आगच्छति.
उत्तमं, वृद्धिसन्धिः अस्ति. अपि च सृष्टम् इति पदमस्ति, सृज् धातोः क्तान्तरूपमेव सृष्टम्. सृष्टिः जानति खलु,
आम्,
सृष्टिः इति क्तिन् प्रत्यान्तरूपमस्ति, सृष्टं सृष्टवान् इत्यादीनि पदानि सृज् धातोः रूपाणि. सृष्टम् इति नपुंसकलिङ्गपदं, सृज् धातोः क्तान्तरूपमस्ति. विवक्षा वक्तुमिच्छा विवक्षा सन्नन्तरूपमस्ति, सन्नन्तरूपेषु द्वित्वं भवति खलु, संयङ्गोः इति सूत्रेण सन्नन्तरूपेषु द्वित्वं भवति. लघुत्वार्थम् इत्यस्मिन् स्थाने लाघवार्थम् इति वक्तुं शक्यते, लघुत्वं लाघवं, लघुत्वार्थम् इति स्थाने लाघवार्थम् इति अपि लेखितुं शक्यते. अपि च अत्र गोचराः इति पदमस्ति, वदतु.
गोचराः गोचराः इत्युक्ते द्रष्टुं शक्यते इति वा लकाराः गोचराः दृश्यते पश्यति इति
उत्तमं नरसिंहहेग्डे महोदय गोचराः इत्युक्ते किम्
गोचरः इत्युक्ते दृश्यते एव दृश्यते
किञ्चित् इतोपि वक्तव्यमस्ति कोऽपि वदतु
गोचरः अत्र फ्रोम् द विण्डो गौ दृश्यते इति
लैक् गवाच्छमस्ति वा
गवेषणं गोचराः भवती वक्तुमिच्छति वदतु
इत्युक्ते अत्र केवलं दशलकाराः विषये इति मा चिन्तयतु अद इतोपि बहु किमपि अस्मिन् अन्तर्भूतमस्ति अत्र
गोचराः इति पदमस्ति खलु गावः चरन्ति अस्मिन् इति गोचरः गोशब्दस्य इन्द्रियम् इति अर्थः अपि अस्ति इन्द्रियाणि चरन्ति अस्मिन् इति अपि वक्तुं शक्यते गोचरः इति पदं निपातनेन निर्मितं गो प्रातिपदिकमस्ति चर् धातुतः एकः विशिष्टप्रत्ययः अस्ति तेन गोचर इति निर्मितम् अस्य कृते एव एकं विशिष्टं सूत्रमस्ति गोचर सञ्चर वह व्रज व्यज आपणनिगमाश्च इति सूत्रं तस्मिन् सूत्रे किमुक्तम् इति गोचरः सञ्चरः वहः व्रजः आपणः निगमः इत्यादीनि पदानि अनेन विशिष्टसूत्रेण निपात्यन्ते इति मया पठितं निगमाः इत्युक्ते वेदाः अत्र मम आशयः कः गोचरः इति शब्दस्य योगार्थः भिन्नः रूढार्थः भिन्नः लोके तस्य रूढिः भिन्नरीत्या अभवत् गवेषणम् इत्युक्ते गोः अन्वेषणं किन्तु रिसर्च् इत्यस्मिन् अर्थे लोके रूढिः अभवत् एवमेव गोचरः इत्यस्मिन् योगार्थः भिन्नः रूढार्थः भिन्नः गोचर सञ्चर आपण निगम इत्यादीनि पदानि विशिष्टसूत्रेण निर्मितानि भगिनी भवती वदतु अत्र किं लिखितं
दशलकाराः सन्ति इत्युक्ते वयं जानीमः लट् 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 लिट् लुट् लेट् लिट् देन् लुट् then lang ling lung ete ashirling mithirling ete dashalakaraah santi tatra aarambhe vivachayam anusritya dashalakaraah gojaraah tada ashtadhyaya paddhatya lakhutvartam sarve lakaraah la itikte lakaraah lakarasya लट् इत्यस्य हलन्द्यम् इत्यनेन टकारस्य यत्संज्ञा भूत्वा ला एव अवशिष्यते अकारः अपि अवगच्छति अत्र अनुनासिक अस्ति इति कृत्वा उपदेशे अच्छ अनुनासिक इति सूत्रेण अकारः अपि अपगच्छति तदनन्तरं तस्य लोपः इत्यनेन लोपः अपि भवति इदानीं ला एव अवशिष्यते तत्र सर्वेषु लकारेषु इदानीं रूपं समानमस्ति अत्र भेदः न दृश्यते इति तदनन्तरं यदा लकारस्य स्थाने मूलप्रत्ययः तिङ्प्रत्ययः यदा आगच्छति तदानीमपि भेदः न दृश्यन्ते यदा कदा भेदः दृश्यन्ते इति चेत् यदा लकार पुनः वर्तमाने लट् इत्यनेन लट् लकारस्य स्थाने यदा प्रत्ययः आगच्छति तदानीमेव अस्य भेदः द्रष्टुं शक्यते इति
अन्तिमं वाक्यम्
अभेदत्वात् भेदत्वस्य आगमनेन लकारः इदानीं लट् लोट् लिङ् वेदर्लिङ् एते सार्वधातुकलकाराः इति वयं जानीमः अपि च अन्य षट् लकाराः ये सन्ति ते आर्थधातुकलकाराः इति विभागद्वयम् अपि अत्र अस्ति इति
अस्य अवगमनार्थं कोऽपि वदतु
महोदय किमस्ति तत्र लट् लोट् लिङ् वेदर्लिङ् दशलकाराः सन्ति तत्र भिन्नता वर्तते भेदः अस्ति तत्र अनन्तरं किं भवति तत्र अन्तिम हल् वर्ण इष्टं भवति केवलं ल अवशिष्यते सर्वत्र ल अवशिष्यते, अतः अतः अभेदः दृश्यते, किमपि भेदः नास्ति तत्र. अनन्तरं तत्र लस्य सूत्रेण तिबादय आयान्ति तत्र सर्वत्र, तत्रापि सर्वत्र समानमेव. तत्र पुनः अभेदः. अनन्तरं किं भवति यदा सार्वधातुक चतुर्षु लकारेषु लट् लोट् लङ् विदिनिङ्ग् तत्र धातु साक्षात् तिङ् प्रत्यं पश्यति इति कृत्वा कर्तरिषप् इति आयाति. कर्तरिषप् अनन्तरं गणम् अनुसृत्य कर्तरिषप् प्रबाद्य भिन्नभिन्नगणविकरणप्रत्ययान्ति. अतः अत्र भिन्नता वर्तते सर्वत्र लट् लोट् लङ् विदिनिङ्ग्. परन्तु अन्य षट्षु लकारेषु तत्र आर्धधातुकं सतासलु लुटो इत्यनेन तत्र त्रयलकारणं स्य अनन्तरं तास् इति प्रत्ययः भवन्ति. लिट्च इत्यत्र लुङ्गि श्ली लिट्लि लुङ्गि इत्यत्र क्लि इति प्रत्ययः भवति. अनन्तरं लिट्च लिङ्गाशिषि इत्यत्र तिङ्प्रत्ययः साक्षात् अर्धधातुक इति पाणिनिमहर्षे उक्तं. तत्र किं भवति अत्र गणविकरणप्रत्ययः न आयाति, केवलं लकारनिमित्तिकविकरणप्रत्ययः आयान्ति. तत्र सामान्यतया समानता दृश्यते तत्र. तत्र वयं दृष्टवन्तः आदौ पास्यति दास्यति इत्यादि. तत्र धातु अन्तिमवर्णम् अनुसृत्य समानं दृश्यते. अन्तिम यदि आकारान्त अस्ति चेत् तत्र पास्यति दास्यति, तदेव अस्ति. अतः चिन्तयामि भेद अभेद इति.
साधु महोदय. विवक्षाम् अनुसृत्य इति लिखितं खलु, अतः मम विवक्षा अस्ति लट्लकारः. उदाहरणार्थं लट्लकारं स्वीकुर्मः. लट्लकारविवक्षा अस्ति इति कारणतः लट् इति लकारप्रत्ययं योजयामः. पठ् धातुतः लट्लकारप्रसङ्गे वर्तमाने लट् सूत्रेण लट् इति प्रत्ययं योजयामः पठ् धातुतः. लट् इत्यत्र यथा भगिन्या उक्तं, टकारः हलन्त्यम् इत्यनेन इत्संज्ञकः भवति. अकारः अपि अस्ति लट् इत्यत्र. यः अकारः श्रूयते सः अकारः अनुनासिकः, अतः उपदेशे जनुनासिके इत् इति सूत्रेण सः अकारः इत्संज्ञकः भूत्वा तस्य लोपः इत्यनेन अपगच्छति. तत्र पठ् धातोः परं ल इत्युक्ते लकारः एव शिष्यते. तदा लकारस्य स्थाने लस्य इति सूत्रेण पुनः अस्माकं विवक्षानुगुणम् इत्युक्ते प्रथमपुरुषे एकवचनरूपं साधयितुमिच्छामश्चेत् प्रथमपुरुषे एकवचनप्रत्ययं योजयामः. इत्युक्ते पठ् धातुतः लस्य इति सूत्रेण लकारस्य स्थाने प्रथमपुरुषे एकवचनप्रत्ययं योजयामः, तिप्रत्ययं योजयामः. लस्य सूत्रेण अस्माकं विवक्षानुगुणं लकारस्य स्थाने अष्टादश तिबादिषु अन्यं योजयामः. दशसु लकारेषु ते अष्टादशप्रत्ययाः एव मूलतिङ्प्रत्ययाः एव लकारस्य स्थाने आयान्ति. किन्तु किमर्थं दशलकारेषु रूपाणि भिद्यन्ते? ला एव शिष्यते अनुबन्धवर्णानां लोपकार्यानन्तरं. लट् इत्यस्मिन् अपि ला एव अवशिष्यते, लृट् इत्यस्मिन् अपि ला एव अवशिष्यते, लुट् इत्यस्मिन् अपि. सर्वेषु लकारेषु अनुबन्धवर्णानां लोपकार्यानन्तरं ला एव शिष्यते. किन्तु अन्ततो गत्वा रूपाणि पश्यामश्चेत् दशसु लकारेषु पठ् धातोः रूपाणि भिद्यन्ते खलु. पठति इति लट् लकारे अस्ति, पठतु इति लोट् लकारे अस्ति, अपठत् इति लङ् लकारे अस्ति. एतत् किमर्थं भवति? किमर्थं पश्चात् रूपभेदः जायते? इत्युक्ते प्रथमतया मूलतिङ्प्रत्ययः एव आयाति, पश्चात् तिङ्प्रत्ययस्य स्थाने अन्य आदेशाः भवन्ति. यदा यदा अन्य आदेशाः भवन्ति तदा सिद्धतिङ्प्रत्ययानां निर्माणं भवति, तदा रूपभेदः जायते. तदर्थमेव रूपभेदः जायते. इत्युक्ते लकारम् आश्रित्य भिन्नभिन्नलकारेषु भिन्नभिन्न आदेशाः भवन्ति. इत्युक्ते लट् लकारे सिद्धतिङ्प्रत्ययाः भिन्नाः, लोट् लकारे सिद्धप्रत्ययाः भिन्नाः. इत्युक्ते भिन्नलकारेषु भिन्नभिन्नसिद्धतिङ्प्रत्ययाः आयान्ति. कथम् इत्युक्ते लकारम् आश्रित्य विशिष्टक्रमेण, तदर्थमपि बहूनि सूत्राणि सन्ति. सिद्धतिङ् प्रत्ययानां निर्माणार्थमपि बहूनि सूत्राणि आवश्यकानि. तत्रापि विशेषचिन्तनक्रमः अस्ति. विशेषसूत्राणां द्वारा मूलतिङ् प्रत्ययानां स्थाने भिन्नभिन्न आदेशाः भवन्ति इति कारणतः सिद्धतिङ् प्रत्ययाः भिद्यन्ते. सिद्धतिङ् प्रत्ययाः भिद्यन्ते इति कारणतः रूपभेदः जायते इति वार्ता. लट्लकारे तीतः अन्ति, सीतः थ, मी वह मह सिद्धप्रत्ययाः. लोट्लकारे तु तात्, ताम् अन्तु, तात् तं ता, आनि आव आम. लोट् लकारे सिद्धप्रत्ययाः. लङ् लकारे सिद्धप्रत्ययाः त, ताम्, अन्, स, तं, ता, अं, व, म. इत्युक्ते अपठत् इति रूपसाधनार्थं किं भवति, लङ् लकारे अडागमः भवति, अतः आदौ अकारः आयाति. तत्र सिद्धप्रत्ययः कः, प्रथमपुरुषे एकवचनसिद्धप्रत्ययः त् अस्ति. इत्युक्ते पठ इति अङ्गम् अस्ति. पठ इति अङ्गं स्वीकृत्य सिद्धप्रत्ययं योजयामः. तेन किं भवति, अपठत् इति भवति. सर्वेषु रूपेषु लङ् लकारे अडागमः भवति खलु, अतः अपठत्, अपठताम्, अपठन्, अपठः, अपठतम्, अपठत, अपठम्, अपठाव, अपठाम इति रूपाणि भवन्ति. ईदृशानि रूपाणि कथं साधनीयानि इति प्रश्ने सति अस्माकं चिन्तनं कथं भवेत्, आदौ लङ् लकारे अडागमः भवति, अपि च तत्र सिद्धप्रत्ययाः के इति ज्ञातव्यम्. अङ्गसिद्धतिङ् प्रत्ययोः मेलनं कुर्मः. अत्र मम आशयः कः इत्युक्ते, मूलतिङ् प्रत्ययेभ्यः भिन्नभिन्न आदेशाः भूत्वा सिद्धतिङ् प्रत्ययानां निर्माणं भवति इति कारणतः अन्ततो गत्वा रूपभेदः जायते इति मुख्या वार्ता अस्ति. अपि च लकारस्य स्थाने अष्टादश तिङ् प्रत्ययाः लस्य सूत्रेण आयान्ति खलु, तस्यां दशायां समीचीनतया धातुं दृष्ट्वा तिङ् प्रत्ययम् आनयामः. कीदृशतिङ् प्रत्ययः तत्र आनेतव्यः इति अवगन्तुं धातुः कीदृशः इति द्रष्टव्यम्. इत्युक्ते आत्मनेपदी धातुः अस्ति चेत् आत्मनेपदप्रत्ययान् योजयामः, धातुः परस्मैपदी अस्ति चेत् परस्मैपदप्रत्ययान् योजयामः. इत्युक्ते धातुम् आश्रित्य लकारस्य स्थाने तिङ् प्रत्ययः आयाति. भवन्तः जानन्ति खलु तिप् तस् झि इत्यत्र नवप्रत्ययाः परस्मैपदी धातूनां कृते, नवप्रत्ययाः आत्मनेपदी धातूनां कृते सन्ति. आत्मनेपदी धातूनां कृते तङ् प्रत्ययाः सन्ति खलु. धातुम् अनुसृत्य, धातुम् आश्रित्य परस्मैपदी प्रत्ययाः, आत्मनेपदप्रत्ययाः. तत्र किञ्चित् अवधानं दातव्यं, धातुः आत्मनेपदी वा परस्मैपदी वा इति प्रथमतया निर्णेतव्यं. पश्चादेव लकारस्य स्थाने अस्माकं विवक्षानुगुणम् अष्टादश तिङ् प्रत्ययेषु अन्यतमप्रत्ययं योजयामः. अत्र सारांशः कः इत्युक्ते, मूले तु अभेदः अस्ति. सर्वेषु लकारेषु ला एव शिष्यते, तस्मात् पर्यन्तं कार्यं समानमेव. लकारस्य स्थाने मूलप्रत्ययाः आयान्ति. मूलप्रत्ययानां स्थाने भिन्न आदेशाः भूत्वा सिद्धप्रत्ययाः आयान्ति इति कारणतः तत्र रूपभेदः आयाति. एतादृशभेदसाधनार्थम्, एतादृशं भेदं साधयितुं प्रत्येकस्मिन् लकारे कानिचन विशिष्टानि कार्याणि भवन्ति. इत्युक्ते सिद्धतिङ् प्रत्ययानां रूपसाधनार्थं विशिष्टानि सूत्राणि सन्ति, अपि च तत्र विशेषक्रमः अस्ति. भिन्नभिन्न आदेशाः केन क्रमेण भवन्ति.
एकः संशयः, अत्र लस्य स्थाने यदा प्रत्ययस्य आदेशः भवति, मूलप्रत्ययात् भिन्नप्रत्ययः यदा भवति, तत्र प्रत्यय आदेशः यदा भवति, अस्य आदेशस्य प्रत्यय इति संज्ञा तत्र एव अस्ति वा, यदा तदनन्तरं तदर्थं सूत्रम् अस्ति वा? आदेशः अपि प्रत्ययः खलु,
प्रत्ययादेशाः
इति कृत्वा आदेशः इति वक्तव्यं वा अथवा प्रत्ययः इति वक्तुं शक्यते वा इति प्रश्नः. इदानीं तीतः अन्ति इति अस्ति, अत्र ते अपि प्रत्ययः खलु लट्लकारस्य, यद्यपि आदेशाः तदापि ते तेषामपि प्रत्ययसंज्ञा अस्ति.
प्रत्ययसंज्ञा अस्ति,
दादः प्रत्ययनिमित्तकार्यम् अत्र भवति खलु.
भवति. दशलकाराः कथं निर्मीयन्ते, दशसु लकारेषु रूपाणि किमर्थं भिद्यन्ते, पठति इति लट्लकारे अस्ति, पठतु इति लोट्लकारे अस्ति, पठेत् इति विधिलिङ्ग्लकारे अस्ति. एतादृशरूपभेदः कथं जायते? एतादृशं भेदं साधयितुं प्रत्येकस्मिन् लकारे कानिचन विशिष्टानि कार्याणि भवन्ति. तेन एव सिद्धप्रत्ययानां निर्माणं भवति. सिद्धतिङ् प्रत्ययस्तरे एव भेदः सञ्जायते. कस्मिन् स्तरे भेदः जायते इति अवगन्तव्यं खलु? मूले तु अभेदः एव. तदर्थमेव वाक्यं पश्यन्तु, अभेदत्वात् भेदत्वस्य आगमनं, तेन एव विभागद्वयं सृष्टम्. सिद्धतिङ् प्रत्ययस्तरे एव भेदः भवति. किमर्थं चेत् सिद्धतिङ् प्रत्ययनिर्माणसमये भिन्न आदेशाः भवन्ति, अतः दशिषु लकारेषु रूपाणि भिद्यन्ते. अग्रे पश्येम. सुन्दरमहोदय, भवान् पठतु. अत्र सोपानानि दत्तानि.
सोपानानि दत्तानि लकारप्रत्ययाः. द्विबिन्दु लकारप्रत्ययाः लट् लृट् लृङ् इत्यादयः लकाराणां नामानि इति सामान्यज्ञानम्.
अत्र आस्टरिस्क् अस्ति खलु?
अस्तु भगिनि. विवक्षाम् अनुसृत्य दशलकाराः भेदः प्रकोष्ठे भेदः. सर्वे लकाराः इ इत्येव भवन्ति, अभेदः भवन्ति. अष्टादश तिङ् प्रत्ययाः प्रकोष्ठे अभेदः. लकाराणां सिद्धप्रत्ययाः प्रकोष्ठे भेदः. एवं दशानां लकाराणां तिङन्तपदानि प्रकोष्ठे भेदः. ओके, एतदेव आस्ट्रिक्स् मध्ये यत्किमपि लिखितं तत् विवरणं करोमि. अत्र विवक्षाम् अस्माकं विवक्षाम् अनुसृत्य इति वक्तुम् इच्छाम् अनुसृत्य दशलकाराः भिद्यन्ते इति प्रथमबिन्दुः. सर्वे लकाराः इ इत्येव भवन्ति. प्रथमम् आरम्भे सर्वे लकाराः इ इत्येव लस्य इति सूत्रेण प्रथमम् इल् एव भवन्ति, अभेदः भवन्ति. तदनन्तरं भेदः तदनन्तरम् अष्टादश तिङ् प्रत्ययाः विहिताः, तदपि अभेदः इति लिखितं. लकाराणां लकाराणां सिद्धतिङ् प्रत्ययानां योजनेन एव भेदः उत्पद्यन्ते, भेदः उत्पद्यन्ते. दशानां लकाराणां तिङन्तपदानि प्रवेशानन्तरं भेदः दृश्यन्ते. तदेव भगिनि,
अवगतं खलु?
प्रथमम् अभेदः, तदनन्तरं भेदः दृश्यन्ते. सिद्धतिङ् प्रत्ययानां योजनेन भेदः दृश्यन्ते. प्रथमम् अभेदः भवति, तदनन्तरं भेदः दृश्यन्ते. तदेव
उत्तमम्. एतादृशक्रमः किमर्थं सृष्टः पाणिनिना? अस्य महत्त्वं किम्? अनया पद्धत्या कः लाभः इति प्रश्ने सति तत्र लाघवमस्ति, लघुत्वमस्ति, लघुता अस्ति. अनेन क्रमेण लाघवमस्ति. केन क्रमेण तिङ् प्रत्ययः विहितः भवति? कस्मिन् सोपाने तिङ् प्रत्ययः विहितः भवति? अपि च कस्मिन् स्तरे भेदः जायते? सिद्धतिङ् प्रत्ययस्तरे एव भेदः जायते. एवं न कृतं चेत् तत्र इतोपि बहूनि सूत्राणि आवश्यकानि भवन्ति. केवलम् एकेन सूत्रेण एव लस्य इति सूत्रेण तिबादयः आयान्ति. लाघवार्थम् एवं कृतम् अस्ति. सर्वेषु लकारेषु अनुबन्धलोपानन्तरं ला एव शिष्यते. तावत्पर्यन्तम् अभेदः एव. लस्य इति एकेन सूत्रेण एव तत्र तिबादीनां विधानं भवति, अष्टादश तिङ् प्रत्ययानां विधानं भवति. तावत्पर्यन्तं भेदः नास्ति. कुत्र भेदः आयाति? तिङ् प्रत्ययानां स्थाने यदा भिन्नभिन्न आदेशाः भवन्ति, भिन्नभिन्न आदेशाः भूत्वा भिन्नलकारेषु भिन्नकार्याणि भूत्वा सिद्धतिङ् प्रत्ययाः यदा आयान्ति, लकारम् अनुसृत्य आदेशाः भवन्ति. सर्वत्र समानानि न, भिन्नलकारेषु भिन्नप्रकारककार्याणि भवन्ति सिद्धतिङ् प्रत्ययानां निर्माणार्थं. सिद्धतिङ् प्रत्ययानां स्तरे एव भेदः जायते लकारम् अनुसृत्य. तादृशभेदः नास्ति चेत् रूपभेदः न भवति खलु? अन्ततो गत्वा सर्वाणि रूपाणि समानानि भवन्ति, तथा मा भवतु इति मत्वा सिद्धतिङ् प्रत्ययस्तरे एव भेदः जायते इति, तस्यां दशायाम् एव तत्र भेदः आयाति. अनेन क्रमेण पठनेन लाघवम् अस्ति. अपि च सार्वधातुकलकाराः अर्धधातुकलकाराः इति विभागद्वयमपि आयाति. इत्युक्ते प्रथमसोपाने एव सार्वधातुकप्रक्रियायां तिङ् प्रत्ययः आयाति. प्रथमसोपाने तिङ् प्रत्ययः आयाति, तिङ् प्रत्ययं निमित्तीकृत्य विकरणप्रत्ययः आयाति सार्वधातुकलकारेषु. अर्धधातुकलकारेषु किं भवति? प्रथमसोपाने लकारं निमित्तीकृत्य लकारनिमित्तिकविकरणप्रत्ययः आयाति, पश्चात् तिङ् प्रत्ययः आयाति. तादृशभेदः अस्ति, तादृशभेदसाधनार्थम् एवं कृतमस्ति. अग्रे अपि पठतु.
लकारप्रत्ययाः अधुना लट् लृट् लङ् इत्यादयः लकाराणां नामानि इति सामान्यज्ञानम्, परन्तु केवलं नामानि इति न, एते स्वयं प्रत्ययाः सन्ति. दशानां लकाराणां प्रत्ययाः विहिताः भवन्ति एभिः सूत्रैः. ओके, अस्तु. लट् लृट् लङ् लट् लृट् लङ् इत्यादयः लकाराणां नामानि इति सर्वे जानन्ति, परन्तु ते केवलं नामानि न, ते सर्वे प्रत्ययाः अपि भवन्ति. दशानां दशलकाराणां प्रत्ययाः विहिताः सूत्रैः, भिन्नभिन्नसूत्रैः दशलकाराणां प्रत्ययाः विहिताः. वर्तमाने लट्
लट् लोट् लङ् विधिलिङ् इति न केवलं लकाराणां नामानि, ते स्वयं प्रत्ययाः. लट् इति एकः प्रत्ययः, लट् अर्धधातुकप्रत्ययः, ते स्वयं प्रत्ययाः. लट् प्रत्ययः कस्मिन् अर्थे विधीयते? भिन्नभिन्न अर्थेषु भिन्नलकारप्रत्ययाः भिन्नसूत्रैः आयान्ति इति मुख्यविषयः. लट् प्रत्ययस्य अर्थः भिन्नः, लृट् तस्य अर्थः भिन्नः, एवं भिन्न अर्थेषु भिन्नलकारप्रत्ययाः भिन्नसूत्रैः आयान्ति. इदानीं वदतु.
इदानीं भिन्न प्रत्ययैः भिन्नप्रत्ययाः विहिताः, तैः तस्य अर्थः अपि भिन्नः भवति. वर्तमाने लट् इति प्रकोष्ठे तृतीय अध्याये द्वितीयपादे त्रयोविंशत्यधिकशतम् शततमं सूत्रम् अनुद्यतने.
वर्तमाने लट् प्रसङ्गे किञ्चित् वदतु.
वर्तमाने लट् इति प्रत्ययः वर्तमानकालविवक्षायां यत्किमपि अस्माभिः वक्तव्यं तत्सर्वं वर्तमाने लट् इति प्रत्ययस्य योजनेन, वर्तमाने लट् इति प्रत्ययस्य योजनेन, लट् प्रत्ययस्य योजनेन तत्सर्वं उक्तं. यथा पठ् योगे पिप् पठति, पठ्योगे विकरणप्रत्ययस्य योजनेन तिप् इति भवन्ति. तिप् तस् झि ते सर्वे वर्तमाने लट् इत्येव भवन्ति. वर्तमानकालविवक्षायां लट् इति प्रत्ययः विहितः.
वर्तमानकालः नाम किम्? नीलं भगिनी कृपया वदतु.
वर्तमानकालः इत्युक्ते तत्र क्रिया, या क्रिया प्रारब्धः अस्ति इदानीं पर्यन्तं समाप्तः न जातः, सः एव वर्तमानकालः.
उत्तमं. वर्तमानकालार्थे धातोः परं लट् प्रत्ययः विहितः भवति. वर्तमानकालः इत्युक्ते कार्यम् आरब्धं किन्तु न परिसमाप्तम्, इत्युक्ते यस्मिन् काले क्रिया आरब्धा किन्तु न परिसमाप्ता, सः कालः एव वर्तमानकालः. कार्यं प्रचलदस्ति, प्रचलत् इति शत्रन्तरूपं नपुंसकलिङ्गे. कार्यं प्रचलत् अस्ति अथवा क्रिया आरब्धा, अपि च सा क्रिया प्रचलन्ती अस्ति न समाप्ता एतादृशीं क्रियां दर्शयितुम् अथवा एतादृशीं क्रियां द्योतयितुं लट् लकारस्य प्रयोगः भवति. वर्तमाने लट् इति सूत्रम् अधिकारसूत्रम् अपि इतः आरभ्य वर्तमानाधिकारः आरभ्यते. इदम् अधिकारसूत्रम् इतः आरभ्य वर्तमानाधिकारः अस्ति. वर्तमाने इति सप्तम्यन्तं, लट् इति प्रथमान्तं. वर्तमानकालार्थे लट् प्रत्ययः धातोः परं विहितः भवति इति अर्थः. इदानीं लक्ष्मीभगिनी अग्रिमं सूत्रं वदतु.
अनभ्यतने लङ् तृतीयपदस्य तृतीयाध्यायस्य द्वितीयपादस्य एकादशाध्यधिक एकशतं सूत्रम् अनध्यतने लङ्. अनध्यतने इत्युक्ते न अध्यतनः, अनध्यतनः. अत्र भूतकालार्थं लङ् लकारः त्रिधा भवन्ति. सामान्य लङ् लकारः, अद्यतन लङ् लकारः, अनध्यतनः, परोक्ष लङ् इति.
भूतकालप्रसङ्गे त्रयः लकाराः सन्ति. अनध्यतने लङ् प्रसङ्गे वदतु.
अनध्यतने गतरात्रेः प्रथमयामात् पूर्वं यः विद्यमानः कालः अनध्यतनः.
उत्तमम्. अनध्यतने इति सप्तमी एकवचनमस्ति, लङ् इति प्रथमान्तमस्ति. अनध्यतनभूतकालं दर्शयितुं धातोः परं लङ् प्रत्ययः विहितः भवति. अनध्यतनम् इत्युक्ते यत् अद्यतनं नास्ति तत् अनध्यतनं. तत्र नञ्समासः अस्ति, न विद्यते अद्यतनं यस्य तत्. अनध्यतनभूतकालं द्योतयितुं लङ् प्रत्ययः विहितः भवति. भवन्तः सर्वे श्रुतवन्तः एव रूपाणि, अगच्छत्, अभवत्, अपठत्, अकरोत्, अखादत् इत्यादीनि रूपाणि लङ्लकाररूपाणि. लङ्लकारे लृङ् लङ् लृङ्षु अडुदात्तः इति सूत्रेण अडागमः भवति. अतः आदौ आश्रूयते अगच्छत्, अभवत्, अकरोत् इत्यत्र. अनध्यतनभूतकालं दर्शयितुं लङ्लकारः इति उक्तं खलु. एतदर्थम् उदाहरणानि. संस्कृतछात्रः ह्यः विद्यालयम् अगच्छत्. ह्यः इति कथनेन अनध्यतनभूतकालः. गते सप्ताहे अहं संस्कृतवर्गं न अगच्छम्. गते सप्ताहे अहं संस्कृतवर्गं न अगच्छम्. गते वर्षे अहं संस्कृतव्याकरणम् अपठम्. गते मासे, गते वर्षे, गते सप्ताहे, ह्यः, परह्यः, प्रपरह्यः, सः कालः एव अनध्यतनभूतकालः. अद्यतनं नास्ति. अनध्यतनभूतकालिकक्रियां दर्शयितुं लङ्लकारः प्रयुज्यते. अत्र केवलं पदद्वयमेव अस्ति. अनध्यतने सप्तम्यन्तं, लङ् प्रथमान्तम्. अनध्यतनभूतकालं द्योतयितुं लङ्लकारः. तृतीयं सूत्रं पठतु भवती एव.
विधिनिमन्त्रणादिष्टसम्प्रश्नप्रार्थनेषु लिङ् विधिलिङ् लिङ्लकारः विधिनिमन्त्रण आमन्त्रण अधीष्ट सम्प्रश्न प्रार्थना एतेषु लिङ्लकारः भवन्ति.
उत्तमम्. इतोपि कोऽपि वक्तुमिच्छति वा? सत्यभामा भगिनी, भवती वक्तुमिच्छति वा अस्मिन् प्रसङ्गे?
अनेन सूत्रेण लिङ्लकारस्य विधानं क्रियते. इत्युक्ते विधिनिमन्त्रण, विधि इत्युक्ते प्रेरणार्थे इति वक्तुं शक्यते. विधि
आज्ञा अथवा प्रेरणा.
तदनन्तरं निमन्त्रणम् इत्युक्ते स्वार्थकार्यार्थं यत् करोति तदेव निमन्त्रणं. निमन्त्रणम् आमन्त्रणं न जानामि.
मन्त्रिमहोदयम् आमन्त्रयामि. पश्यन्तु, सूत्रे षट् पदानि सन्ति, विधिः, निमन्त्रणम्, आमन्त्रणम्, अधीष्टं, सम्प्रश्नः, प्रार्थना इति षट् पदानि सन्ति. एतेषु अर्थेषु, एतेषु षट्सु अर्थेषु धातोः परं लिङ्प्रत्ययः भवति. तत्र लिङ्लकारे लकारद्वयमस्ति, विधिलिङ्लकारः, आशीर्लिङ्लकारः. विधिलिङ्लकारः सार्वधातुकः, आशीर्लिङ्लकारः आर्धधातुकः. तत्र भेदः अस्ति. विधिलिङ्लकारप्रसङ्गे एव इदं सूत्रं कार्यं करोति. एतेषु षट्सु अर्धेषु एव विधिलिङ्लकारप्रत्ययः विहितः भवति. पठेत्, गच्छेत्, खादेत् इत्यादिषु पदेषु विधिलिङ्लकारः अस्ति. विधिः इत्युक्ते आज्ञा अथवा प्रेरणा. विधिः इति कदा वदामः? तत्कार्यम् अवश्यं करणीयं. यत् कार्यम् अवश्यं करणीयं तदेव विधिः खलु. सामान्यतया सेवकं प्रति तादृशव्यवहारं कुर्मः वयं, स एव विधिः. तस्मिन् सन्दर्भे विधिलिङ्लकारप्रसङ्गे लिङ् प्रत्ययं योजयामः. द्वितीयमस्ति निमन्त्रणम्. निमन्त्रणमपि अवश्यं करणीयः विधिः एव. निमन्त्रणमित्युक्ते भगिनी उक्तवती श्राद्धकार्येषु निमन्त्रणं भवति, निमन्त्रणस्य स्वीकारः करणीयः एव. श्राद्धभोजनादिषु प्रवर्तनं इत्युक्ते निमन्त्रणस्य स्वीकारः करणीयः, अवश्यं करणीयः विधिः एव निमन्त्रणमपि. आमन्त्रणम् इत्युक्ते आमन्त्रणस्य स्वीकारमपि कर्तुं शक्नुमः, अस्वीकारः अपि भवितुं शक्नोति. इत्युक्ते इच्छानुगुणं सः कर्तुं शक्नोति, नो चेदपि साधु एव. तत्र तु स्वेच्छा अस्ति, यथेच्छं सः कार्यं कर्तुं शक्नोति. तादृशसन्दर्भेषु अपि लिङ्लकारः प्रयुज्यते. अत्र विधिः इति अवगन्तुं किं वदामः? भवान् ग्रामं गच्छेत्, सेवकं प्रति तथा वदामः खलु, भवान् ग्रामं गच्छेत्, भवता गन्तव्यमेव इति अर्थः. कार्यं कुर्यात् इति वदामश्चेत् तत्र विधिः अस्ति. एवमेव निमन्त्रणम्, इह श्राद्धे भवान् भुञ्जीत इति कथनेन भुञ्जीत इति विधिलिङ्गलकाररूपम् अस्ति. श्राद्धे भवान् भुञ्जीत इति कथनेन निमन्त्रणमस्ति. आमन्त्रणमित्युक्ते यथेच्छम् इह भवान् भुञ्जीत. आमन्त्रणम् इत्युक्ते विधिः नास्ति, यथेच्छं कर्तुं शक्यते. अधीष्टम्, अधीष्टमित्युक्ते धनादीन् दत्त्वा सत्कारं कृत्वा आह्वयामः, अन्यम् आह्वयामः. यदा वयं सत्कारं कृत्वा धनादीन् दत्त्वा वयम् अन्यम् आह्वयामः, तस्मिन् अर्थे अधीष्टम् इत्युक्ते सः एव अर्थः अस्ति. सत्कारपूर्वकव्यापारः, तस्मिन् सन्दर्भे अपि लिङ् प्रत्ययः युज्यते. अस्मिन् सूत्रे पञ्चमं पदमस्ति सम्प्रश्नः. यदा यदा कर्तव्य अकर्तव्यप्रसङ्गे संशयः अस्ति, सन्देहः अस्ति, कर्तव्यं वा न कर्तव्यं वा इत्यस्मिन् प्रसङ्गे, कर्तव्याकर्तव्यविषयकप्रश्नकरणसमये अपि संशयनिवारणार्थं यदा वयं पृच्छामः तस्मिन् प्रसङ्गे अपि लिङ्लकारः प्रयुज्यते. अन्तिमं पदमस्ति प्रार्थना. प्रार्थना इत्युक्ते याचना. तस्मिन् सन्दर्भे अपि लिङ् प्रत्ययः विहितः भवति. आहत्य विधिनिमन्त्रणामन्त्रणाधिष्ठसम्प्रश्नप्रार्थनेषु लिङ् इति सूत्रम्. विधिः, निमन्त्रणम्, आमन्त्रणम्, अधीष्टं, सम्प्रश्नः, प्रार्थना, एतेषु अर्थेषु धातोः परं लिङ् प्रत्ययः विहितः भवति. प्रार्थना इति कथनेन भवान् मह्यम् अन्नं दद्यात्, मह्यम् अन्नं दद्यात् इति कथनेन दद्यात् इति विधिलिङ्गलकाररूपम् अस्ति. तत्र प्रार्थना अस्ति. कथं वक्तव्यं मह्यम् अन्नं दद्यात्? अग्रिमं सूत्रमस्ति लोट् च. अस्मिन् प्रसङ्गे सत्यभामा भगिनी भवती एव वदतु.
अत्र सन्देहः, अत्र अधीष्ट इति कथनेन किं भवति?
धनं दत्त्वा सत्कारं कृत्वा वयम् अन्यम् आह्वयामः खलु. उदाहरणार्थं मम पुत्रम् अध्यापयतु इति मनसि इच्छा अस्ति. तस्मिन् प्रसङ्गे मम पुत्रम् अध्यापयेत् इति, तत्र अध्यापयेत् इति विधिलकारः अस्ति. पुत्रम् अध्यापयेत् इति वदामि चेत् तत्र धनम् आदि दत्त्वा अध्यापकम् आह्वयामः खलु.
निमन्त्रणम् अथवा आमन्त्रणमपि अतः तदेव किल? अधीष्ट इत्यस्य भेदः कः?
निमन्त्रणम् इत्युक्ते श्राद्धकार्येषु यदा वयम् आह्वानं कुर्मः, यदा वयं निमन्त्रणं कुर्मः निमन्त्रणं स्वीकर्तव्यमेव, सः विधिः करणीयः एव श्राद्धकार्येषु श्राद्धभोजनादिषु तथा वदामः. इह भुञ्जीत इति कथनेन तत्र निमन्त्रणमस्ति. वदतु.
आमन्त्रणम् इत्युक्ते आङ्ग उपसर्गपूर्वक भेदः कः? अदिष्ट एवम् आमन्त्रणम्.
आमन्त्रणस्य स्वीकारः अपि भवितुं शक्नोति, अस्वीकारः अपि भवितुं शक्नोति. तस्मिन् सन्दर्भे कर्तुः स्वेच्छा अस्ति, सः यथेच्छं कर्तुं शक्नोति, किन्तु निमन्त्रणसमये विधिः अवश्यं करणीयम्. अधीष्टम् इत्युक्ते यदा वयम् आह्वानं दत्त्वा सत्कारं कुर्मः, कार्यं कर्तुम् आह्वयामः, तस्मिन् सन्दर्भे अधीष्टम् इति वदामः. तस्मिन् प्रसङ्गे एकम् उदाहरणं, मम पुत्रम् अध्यापयेत् इति वदामि चेत् तस्मिन् सन्दर्भे अहं धनं दातुमिच्छामि, सत्कारं कर्तुमिच्छामि. इतोपि वदतु.
इतोपि इत्युक्ते तस्य भविष्यत्कालं वर्धनं सम्यक् भवेत् इति रेस्पान्सिबिलिटि तस्य. वयं तस्य गुरुकुलं योजयामः, तादृशं किल, गुरुकुलम् अथवा विद्यालयं योजयामः, विद्यालये योजयामः, तादृशं भवति किल.
उत्तमम्. अधीष्टम् इत्युक्ते सत्कारपूर्वकव्यापारः यत्र भवति तस्मिन् अर्थे अपि लिङ्लकारस्य प्रयोगः भवति. अस्मिन् सूत्रे षट् पदानि दत्तानि, तेषु अर्थेषु धातोः परं लिङ्प्रत्ययः विहितः भवति. अन्तिमं पदं प्रार्थना अस्ति. प्रार्थना इत्युक्ते याचना. एतेषु षट्सु अर्थेषु लिङ्लकारस्य प्रयोगः भवति. विध्यादिषु विधि आदिषु, प्रथमं पदं विधिः इति लिखितमस्ति खलु, विध्यादिषु अर्थेषु धातोः परं लिङ्लकारः प्रयुज्यते, किन्तु आशीर्वादार्थे आशीर्लिङ्लकारः प्रयुज्यते. अग्रिमं सूत्रं लोट् च अस्ति. लोट् च इत्यस्मिन् सूत्रे केवलं पदद्वयमेव अस्ति, लोट् च. लोट् च इत्यस्मिन् सूत्रे अपि विधिनिमन्त्रणामन्त्रणाधीष्टसम्प्रश्नप्रार्थनेषु इति पदम् अनुवृत्तं भवति. इत्युक्ते पूर्वसूत्रात् एतत् सर्वम् अनुवृत्तं भवति. लोट्लकारप्रसङ्गे अपि विधिनिमन्त्रणामन्त्रणाधीष्टसम्प्रश्नप्रार्थनेषु लोट् इति अर्थः.
चकारेण तदेव निर्दिष्टं वा? चकारेण इत्युक्ते लोट् अर्थे अपि एतेषां प्रयोगः भवति, विधि निमन्त्रण आमन्त्रण अधीष्टसम्प्रश्नप्रार्थना प्रार्थनार्थे लोट् लकारः अपि आगच्छति.
उत्तमं. लोट् लकारः विधिलिङ्ग्लकारः समानार्थिनौ स्तः, द्वौ अपि समानार्थिनौ स्तः. समान अर्थे एव लोट्लकारः विधिलिङ्ग्लकारः अपि प्रयुज्यते. एतेषु षट्सु अर्थेषु लोट्लकारः अपि प्रयुज्यते. इत्युक्ते विध्यादिषु अर्थेषु धातोः परं लोट् प्रत्ययः विहितः भवति. अग्रिमं सूत्रमस्ति. दर्शना भगिनी भवती पठतु परोक्षे लिट्.
भगिनि एकं प्रश्नः, अत्र विधिलिङ्ग्लकारे विधिलिङ्ग्लकारे अपि च लोट् लकारे तत्र कालस्य कोऽपि बाधा नास्ति वा?
कालवाच्यकलकाराः भाववाच्यकलकारः. वदतु. अयं लकारः कालवाच्यकलकारः नास्ति, यद्यपि दशलकाराः सन्ति तेषु केचन लकाराः कालवाच्यकलकाराः, केचन लकाराः भाववाच्यकलकाराः. अत्र लोट् लकारः भाववाच्यकलकारः, तत्र कालस्य प्रसङ्गः नास्ति. परोक्षे लिट् इति एकं सूत्रमस्ति. दर्शना भगिनी भवती वक्तुमिच्छति वा?
प्रयत्नं करिष्यामि. तर्हि परोक्षे लिट् इति सूत्रमस्ति.
एतत् भविष्यत्कालार्थे अस्ति किल, लिङ्ग् विधिलिङ्ग् अपि
न, अत्र कालप्रसङ्गः नास्ति. षट् लकाराः कालवाचकलकाराः, चत्वारः लकाराः भाववाचकाः इति मन्ये. इदानीं वदतु भगिनि.
तर्हि परोक्षे लिट् अत्र यत् लिट् लकार तु लेट् लकार वेदस्य अस्ति, परोक्षे लिट् लकार यत्र वयं न द्रष्टुं शक्नुमः यथा महाभारतकाले अथवा अन्यस्मिन् युगे भविष्यति तदेव लिट् लकारः अस्ति इति मन्ये.
तदेव परोक्षभूतकालं द्योतयितुं परोक्षभूतकालः परोक्षभूतकालं द्योतयितुं लिट् लकारः प्रयुज्यते. परोक्षम् इति पदमस्ति. परोक्षम् इति पदम् अव्ययीभावसमासयुक्तं पदं. तस्मिन् पदे अव्ययीभावसमासः अस्ति. प्रत्यक्षं परोक्षं समक्षम् अन्वक्षम् इत्यादीनि पदानि अव्ययीभावसमासयुक्तपदानि. तेषु पदेषु अव्ययीभावसमासः अस्ति. प्रत्यक्षम् इति पदस्य विग्रहवाक्यम् अक्षिणी प्रति. सम्यक्तया विग्रहवाक्यं वक्तव्यं चेत् अक्षिणी प्रति. परोक्षम् इत्युक्ते अक्षिभ्यां परम्. प्रत्यक्षमित्युक्ते अक्षिणी प्रति. परोक्षमित्युक्ते अक्षिभ्यां परम्. समक्षम् इत्युक्ते अक्षुणोः योग्यम्. अन्वक्षम् इत्युक्ते अक्षुणोः पश्चात्. एवं विग्रहवाक्यानि वक्तव्यानि अव्ययीभावसमासस्य प्रसङ्गे इमानि पदानि द्रष्टुं शक्नुमः. तत्र एकं गणसूत्रमस्ति. प्रतिपरसम अनुभ्योक्षणः इति गणसूत्रेण टच् इति समासान्तप्रत्ययः विहितः भवति. तेषां निर्माणसमये प्रत्यक्षं परोक्षं समक्षम् अन्वक्षम् इत्यादीनां रूपसाधनवेलायां प्रतिपरसम अनुभ्योक्षणः प्रतिपरसम अनुभ्योक्षणः इति सूत्रमस्ति. तेन सूत्रेण टच् इति समासान्तप्रत्ययः भवति. एतेषां निर्माणसमये विशिष्टसमाससूत्रं नास्ति, किन्तु गणसूत्रेण अस्य निर्माणं भवति. परोक्षम् इति पदस्य विग्रहवाक्यम् अक्षिभ्यां परम्. अक्षिभ्यां परम् इत्युक्ते बियाण्ड् द रेञ्ज् आफ् सैट्, बियाण्ड् द रेञ्ज् आफ् पर्सेप्शन्. यथा भगिन्या उक्तं रामायणकाले यदभवत् तस्मिन् प्रसङ्गे वदन् अस्ति चेत् तत्र लिट् लकारः प्रयुज्यते. इत्युक्ते या क्रिया अनद्यतनभूतकाले अभवत् सा क्रिया वक्त्रा न दृष्टा. यः वदन् अस्ति सः तां क्रियां न दृष्टवान्. सा क्रिया वक्त्रा न दृष्टा, वाक्यस्य वक्त्रा न दृष्टा. या क्रिया भूतकाले अभवत् सा क्रियां वाक्यस्य वक्ता न दृष्टवान् आसीत्. तादृशक्रिया एव परोक्षभूतकालिकी क्रिया. तस्मिन् प्रसङ्गे लिट् लकारः प्रयुज्यते.
क्षम्यताम्, एवं वक्तुं शक्नुमः किम् अस्मिन् युगे न अभवत् इति? अस्मिन् युगे न अभवत् इति
तस्य प्रसङ्गः नास्ति. अनद्यतनभूतकाले या क्रिया अभवत् तां क्रियां वाक्यस्य वक्ता यः अस्ति सः न दृष्टवान् तावदेव. परोक्षम् इति किमर्थं लिखितमस्ति? परोक्षं प्रत्यक्षं, भवती जानाति खलु, प्रत्यक्षं परोक्षं. यत् कार्यम् अक्षिणी प्रति अभवत् तदेव प्रत्यक्षं.
मम अहं किञ्चिदेव पठितवती, परन्तु यत्किमपि पठितवती तत्र लिट् लकारस्य प्रयोजनं तु एवमेव यत् अस्मिन् युगे तु न अभवत् इति महाभारतकाले अथवा रामायणकाले अथवा भागवतस्य प्रवचनं यदा भवति तदा एव अहं श्रुतवती. कलियुगे यत् अभवत् तत्तु अहं तत्र लिट् लकारस्य प्रयोजनं न दृष्टवती.
सूत्रं किं वदति इति प्रसङ्गः खलु. अतः अत्र परोक्षे इति सप्तम्यन्तं पदं, तत्र प्रथमान्तं पदमस्ति परोक्षं. तस्मिन् पदे अव्ययीभावसमासः अस्ति. इत्युक्ते अक्षिभ्यां परम् अनद्यतनभूतकाले यत् कार्यम् अभवत् तां क्रियां वाक्यस्य वक्ता न दृष्टवान्, वक्ता न दृष्टवान् इति कारणतः परोक्ष इति पदं लिखितमस्ति. परोक्षभूतकालं द्योतयितुं लिट् लकारः प्रयुज्यते. लिट् लकारे द्वित्वकार्यं भवति. तत्र एकं सूत्रमस्ति, वयं द्वित्वप्रसङ्गे एकं सूत्रं पठितवन्तः, लिटि धातोरनभ्यासस्य इति सूत्रं. लिटि धातोरनभ्यासस्य इति सूत्रेण लिट् लकारे द्वित्वं भवति. तदर्थमेव वच् धातोः रूपम् उवाच, पठ् धातोः रूपं पपाठ, गम् धातोः रूपं जगाम, रामः वनं जगाम इति कथनेन तत्र परोक्षभूतकालः अस्ति, अनद्यतनभूतकालः अपि च परोक्षभूतकालः इति.
एवं चिन्तयितुं शक्यते वा, यदा तद् उक्तं तस्मिन् समये तत् पर भूतकालं जातं, तस्मिन् समये अपि तत् अभवत् न? धनिं जामः वनं जगामः इति यदा वाल्मीकिः लिखितवान् तस्मिन् समये तद् अभवत्, तदनन्तरं लिखितम् इति वक्तुं शक्यते वा इति प्रश्नः. यतोहि इदानीं भगवद्गीतायां पश्यति चेत् तत्र धृतराष्ट्र उवाच इति दत्तमस्ति, तदपि भूतकालम् एव सूचयति.
अनद्यतनभूतकालः परोक्षभूतकालः.
यदि अहं मम पितामहस्य विषये वदामि, किमपि विषयं वदामि, मम जन्मपूर्वमेव सः मृत्युं प्राप्तवान्, तादृशं मम पितामहस्य विषये यदि अयम् अहं वदामि तत्रापि लिट् प्रयोगं कर्तुं शक्यते किल? अनन्तरं युगान्तरं न आवश्यकम्, अनावश्यकम् इति मन्ये. यदि तदपि परोक्षमेव मम पितामहस्य विषये यदि अहं वदामि तदपि परोक्ष एव, अहं कदापि न दृष्टवान्, तं न दृष्टवान्, तदेव.
बियाण्ड् द रेञ्ज् आफ् सैट्, बियाण्ड् द रेञ्ज् आफ् पर्सेप्शन्, परोक्षम् इत्यस्य अर्थः. तस्मिन् सन्दर्भे लिट् लकारः प्रयुज्यते, लिट् लकारे द्वित्वं भवति, लिटि धातोरनभ्यासस्य, अनभ्यासस्य धातोः एव लिट् लकारे द्वित्वं भवति. पपाठ, जगाम, उवाच इत्यादीनि रूपाणि द्रष्टुं शक्नुमः. अग्रिमं सूत्रम् अनद्यतने लुट् इति दत्तमस्ति, अनद्यतनभविष्यत्कालं दर्शयितुं लुट् लकारः प्रयुज्यते. साधारणतया लुट् लकारम् उपयुज्य वाक्यानि वदामः. संस्कृतछात्राः श्वः विद्यालयं गमिष्यन्ति इति साधारणतया वदामः. गमिष्यन्ति इत्यत्र लुट् लकारः अस्ति. संस्कृतछात्राः श्वः विद्यालयं गन्तारः इति कथनेन लुट् लकारः भवति. तत्र एकं वैशिष्ट्यम् अस्ति, लुट् लकाररूपाणि तृच् रूपाणि इव दृश्यन्ते. तृजन्तरूपाणि कथं भवन्ति, पठ् धातुः अस्ति चेत् पठिता, पठितृ इति प्रातिपदिकं सिद्ध्यति खलु, एवमेव गम् धातोः तृजन्तरूपं गन्ता इति भवति. तथा एव लुट् लकाररूपाणि अपि भवन्ति, गन्ता, गन्तारौ, गन्तारः एवं भवन्ति लुट् लकाररूपाणि. किन्तु लुट् लकारः अनद्यतनभविष्यत्कालं दर्शयितुं धातोः परम् आयाति. अग्रिमं सूत्रमस्ति लुट् शेषे च, तस्मिन् प्रसङ्गे बहु किमपि ज्ञातव्यं, लुट् शेषे च इति प्रसङ्गे अग्रिमे सप्ताहे ज्ञास्यामः. प्रथमतया वयं सार्वधातुकलकारान् पठामः, पश्चादेव आर्धधातुकलकारान् ज्ञास्यामः. अतः लट् लोट् लङ् विधिलिङ् एतेषां चतुर्णां प्रसङ्गे, लकारप्रत्ययानां प्रसङ्गे केषु केषु अर्थेषु ते प्रत्ययाः विधीयन्ते इति किञ्चित् अवगतम् इदानीं. लट् लोट् लङ् विधिलिङ् चतुर्णां लकाराणाम् अर्थान् ज्ञातवन्तः, कस्मिन् अर्थे सः लकारप्रत्ययः विधीयते तान् अर्थान् वयं ज्ञातवन्तः. मुख्यविषयः कः? दशसूत्राणि दत्तानि, सूत्रात् परम् आवरणे सूत्रसङ्ख्या दत्ता. इमानि सर्वाणि सूत्राणि तृतीयाध्याये एव सन्ति. धातुभ्यः तिङ्प्रत्ययानां विधानं तृतीयाध्याये एव भवति. यदा कदापि अस्माकं मनसि संशयः जायते तदा अष्टाध्याय्यां तृतीयाध्यायं प्रति गत्वा तृतीयाध्याये केन सूत्रेण कः प्रत्ययः विहितः भवति एतत् सर्वं तृतीयाध्यायं पठामश्चेत् अवगन्तुं शक्नुमः. तदेव अत्र दत्तमस्ति. इदं वाक्यं पठित्वा समापयामः. दर्शनभगिनी पठतु.
अस्माकम् एतावता अष्टाध्यायाः समग्रदृष्टिः मनसि अस्ति खलु? इमानि उपरितनानि सूत्राणि कस्मिन् अध्याये? तृतीयाध्याये. अतः केषां सूत्राणाम् अधिकारः इति. तर्हि अस्माकम् एतावता अष्टाध्यायाः समग्रदृष्टिः मनसि अस्ति खलु इति लिखितमस्ति. ये ये पठितवन्तः तेषां मनसि यत्किमपि भवती पाठितवती तत् तेषां मनसि अस्ति. इमानि उपरितनानि सूत्राणि कस्मिन् अध्याये इदानीं भवती एव उक्तवती तृतीयाध्याये अस्ति. तर्हि यदा अस्माकं मनसि संशयः आयाति तदा तृतीयपाठं प्रति तृतीयाध्याये प्रति अध्यायं प्रति गन्तुं शक्नुमः. अतः केषां सूत्राणाम् अधिकारः अस्ति? एतानि सूत्राणि कस्य सूत्रस्य अधिकारे अस्ति इति प्रश्नः.
उत्तमं. धातुभ्यः विधीयमानाः प्रत्ययाः एते सर्वे लकाराः अपि प्रत्ययाः एव. साधारणतया वयं लकाराः इति वदामः. लकाराः अपि प्रत्ययाः, धातुभ्यः विधीयमानाः प्रत्ययाः तृतीयाध्याये विधीयन्ते. अतः प्रत्येकं सूत्रस्य अनन्तरं सूत्रसङ्ख्या दत्ता. सूत्रसङ्ख्यां पश्यामश्चेत् इमानि कार्याणि तृतीयाध्याये भवन्ति. इतोपि किम् अवगन्तुं शक्नुमः? तृतीयाध्याये कस्य कस्य अधिकारः अस्ति, कस्य सूत्रस्य अधिकारः अस्ति तृतीयाध्याये? पूर्वस्मिन् वर्गे वयं पठितवन्तः प्रत्ययः परश्च धातोः त्रीणि अधिकारसूत्राणि वयं पठितवन्तः. पुनः पठनस्य आवश्यकता नास्ति. तृतीयाध्याये धातोः इत्यस्य अधिकारः अस्ति. इत्युक्ते तृतीयाध्याये धातुतः प्रत्ययानां विधानं भवति. तृतीयाध्याये धातुतः कृत् प्रत्ययानां विधानं, धातुतः तिङ् प्रत्ययानां विधानं भवति. तृतीयाध्याये धातोः इति अधिकारसूत्रम् आगत्य किं वदति? यः कोऽपि प्रत्ययः अत्र विहितः भवति सः प्रत्ययः धातोः परमेव आयाति. अपि च प्रत्ययाधिकारः त्रिषु अध्यायेषु अस्ति. धातोः परं प्रत्ययः विहितः भवति. तृतीयाध्याये, चतुर्थाध्याये, पञ्चमाध्याये, त्रिषु अध्यायेषु प्रत्ययः विधीयते. धातोः परम् एव तृतीयाध्याये विहितः भवति. चतुर्थाध्याये, पञ्चमाध्याये प्रातिपदिकस्य अनन्तरं प्रत्ययः विहितः भवति इति पठितम्. अग्रे इत्संज्ञकवर्णानां लोपः इति दत्तमस्ति. इत्संज्ञाप्रकरणमपि वयं पठितवन्तः. पुनः पठनस्य आवश्यकता नास्ति. आगामिनि सप्ताहे डि बिन्दुतः आरभ्य परिशीलयाम लकारप्रत्ययानाम् अनुबन्धरहितरूपम् इत्यस्मात् आरभ्य आगामिनि सप्ताहे अवगन्तुं प्रयत्नं करिष्यामः. इदानीम् अत्र स्थगयाम. सर्वेषां धन्यवादाः.
अनेके धन्यवादाः.
धन्यवादः महोदय.
धन्यवादः भगिनी. नमस्कारः.